सन्नं सिद्धं सर्वसैन्यं सहचरुलैः पदावस्तुन्नं सफलं स्वामि कार्यम्।